ಸ್ವರ್ಗಾಯೇಷ ಲೋಕಾಯ ಜೀವತೆ ಯದಗ್ನಿಸ್ತೈಯನ್ನಾನ್ ವಾರೋಹೇ ಸ್ವರ್ಗಾಲ್ಲೋಕಾಯಜಮಾನೋ ಹೀಯೇದ ಪೃಥಿವೀಮಾಕ್ರಮಿಷಂ ಪ್ರಾಣೋ ಮಾಹಾಸೀದಂತರಿಕ್ಷಮಾಕ್ರಮಿಷಂ ಪ್ರಜಾ ಮಾಹಾಸೀದ್ಯಮಾಕ್ರಮಿಷ ಕುಂಸುವರಗನ್ಮೇತ್ಯಾಹೈಷವಾಗ್ನೇರನ್ವಾರೋಹಸ್ತೆ ನೈವೈನಮನ್ವಾರೋಹರಿ ಸುವರ್ಗಸ್ಯ ಲೋಕಸ್ಯ ಸಮಷ್ಟೇ ಯತ್ ಪಕ್ಷಸಂಹಿತಾಮ್ಯಾತ್ಮನೀಯಾಗಂಸಯ್ಯಜ್ಞಕೃತಮುಪೇಯಾತ್ ಪಾಪೀಯಸ್ಯ ಸ್ಯಾತ್ಮನಃ ಪ್ರಜಾ ಸ್ಯಾದ್ವೇದಿ ಸಂಹಿತಾಮ್ಯನೋದಿಜ್ಯಾಯಾಗಂಸಮೇವ ಯಜ್ಞಕೃತಮುಪೇಜಿಗಾ ಸ್ಯಾತ್ಮನಃ ಪಾಪೀಯಸೇ ಪ್ರಜಾ ಭವತಿ ತಾವಸ್ತ್ರಂಚಿನ್ವೇದ ಪ್ರಥಮಂಚಿನ್ವಾನ ಸಹಸ್ರ ಸಂಹಿತೋ ವಾಯಂ ಲೋಕ ಇಮಮೇವ ಲೋಕಮಭಿಜಯದಿ ದ್ವಿಸಹಸ್ರಂಚಿನ್ವೇದ ದ್ವಿತೀಯಂಚಿನ್ವಾನ ಸಹಸ್ರಂ ವಾ ಅಂತರಿಕ್ಷಮಂತರಿಕ್ಷಮೇವಾಭಿಜಯತಿ ತ್ರಿಸಹಸ್ರಂಜಿನ್ವೇದೇಯಂಜಿನ್ವಾನ ತ್ರಿಸಹಸ್ರೋ ವಾ ಅಸೋ ಲೋಕೋಮೇವ ಲೋಕಮಭಿಜಯತಿ ಜಾನುದಗ್ನಂಜಿನ್ವೇದ ಪ್ರಥಮಂಜಿನ್ವಾನೋ ಗಾಯತ್ರಿಯೈವಲೋಕಮವ್ಯಾರೋಹದಿ ನಾಭಿದಗ್ನಂಜಿನ್ವೇದೇಯಂಜಿನ್ವಾನ ಸೃಷ್ಟುಭೈವಾಂತರಿಕ್ಷಮವ್ಯಾರೋಹದಿ ಗ್ರೀವದಗ್ನಂಜಿನ್ವೇದೇಯಂಜಿನ್ವಾನೋ ಜಗತ್ಯೈವ ಲೋಕಮವ್ಯಾರೋಹತಿ ಚಿತ್ವಾ ರಾಮಯಾದಯೋ ನೌರೇತೋಧಾಸ್ಯಾಮೇ ದಿನ ದ್ವಿತೀಯಂ ಚಿತ್ವಾನ್ಯಸ್ಯ ಸ್ತ್ರಿಯಮುಪೇಯಾನ್ನ ತೃತೀಯಂ ಚಿತ್ವಾ ಕಾಂಚನೋಪೇಯಾದ್ರೇತೋ ಏತನ್ನಿಧತ್ತೇಗದಗ್ನಿಂ ಚಿನುತೇದುಪೇಯಾದ್ರೇತಸಾವ್ಯರ್ಧ್ಯಗತಾಥೋ ಖಲ್ವಾಹುಲ ಪ್ರಜಸ್ಯಂದ್ಯನ್ನಾಪೇಯಾದ್ರೇತಸ್ಥಿರಾಪದಧಾದಿತೇ ಪ್ರಾಣೋವಾಹಂತರಿಕ್ಷಂತಸ್ಮಾನ್ನಾಂತರಿಕ್ಷಂ ಪಶ್ಯಂತಿ ನ ಪ್ರಾಣಮಸೌ ತೃತೀಯಾ ಚಕ್ಷುರ್ವಾಸೌ ತಸ್ಮಾತ್ ಪಶ್ಯಂತ್ಯಮೋಂ ಪಶ್ಯಂತಿ ಚಕ್ಷುರ್ಯಜುಷೇಮಾಚ್ಚಾಮೋಂಚೋಪದಧಾತಿ ಮನಸಾ ಮಧ್ಯಮಾನೇಷಾಲ್ಲೋಕಾನಾಂಗುತ್ಯಾಥೋ ಯಜ್ಞೋಭೃಗುಭಿರಾಸೇತ್ನಾವಸುಭಿಸ್ತಶ್ಚ ದ ಇಷ್ಟಸ್ಯ ವೇತಸ್ಯ ದ್ರವಿನೇಹವಕ್ಷೀಯೇದ್ಯಾಹಸ್ತ್ರಶಸ್ತ್ರೇ ಏವೈತೇನ ದುಹೇ ಿದ್ರಾಪದಾಚ್ಛಿದ್ರಾಶುಜಪದಾನುಜಕ್ಷಸ್ವಾಮಾವಿಶ್ವನ್ನೇತಾನೇತದೃಹಸ್ಪತಿರುಕ್ಷಾಮಜಾನಿ ಸೂಯತೆವಾಯೇಷೋಗ್ಮೇನಾಯಮುಖಾಯಾಮ್ರಿಯವೇಗದಸ್ತಾದಗೇದ್ಗರ್ಭಾ ಪ್ರಾದುಕಾಶ್ರಥೋಯಸಾ ಸಮಾತ್ಪತ್ಯವಲೋಹಯದಾದೃಗೇವದಾಸಂತೇದಾದಯದಿ ಗರ್ಭಾನಾಧತ್ಯಾಪ್ರಪಾದಾಯಾಥೋ ಸಮೇವೈನಂಕರೋದಿ ಗರ್ಭೋ ವಾಯೇಷಯದುಖ್ಯೋ ಯೋ ನಿಶ್ಚಿಕ್ಯಂ ಯಚ್ಛಿಕ್ಯಾ ದುಃಖಾನ್ಯೋ ಹೇದ್ಯೋ ಹೇರ್ಗರ್ಭನ್ಯದಹನ್ಯಾಕ್ಷರುದ್ಯಾಮಕಂ
ಶಿಕ್ಯಂಭವತಿಲೋಡಾವಿಹಿತೋ ಪ್ರಜಾ ಉಪಜೀವಂತಿ ದುಃಖಾಂಚೋ ಲೋಖಲಂಚೋಪದಧಾದಿತಾಭ್ಯಾಪೇವಯಜಮಾನೋ ಮುಷ್ಟುಲ್ಲೋಕೇಂದುಹೇದಂ ವತ್ಸರೋ ವಾಯೇಷಯದಗ್ನಿಸ್ತಶ್ಚತ್ರೇಧಾವಿಹಿತಾಯಿತ್ಯಗಾ ಪ್ರಜಾಪತ್ಯಾವೈಷ್ಣವೇಷ್ವಗರ್ಮಣೇನಹೋರಾತ್ರಾನ್ನೇವಾಸ್ಯ ಪ್ರಜಾಪತ್ಯಾಯದುಃಖ್ಯಂ ವಿಭರ್ತಿ ಪ್ರಜಾಪತ್ಯಾಯದುಃಖ್ಯಂ ದಕ್ಷಿಣಾಭಿರ್ನರಾಧಯೇರಗ್ನಿಮಸ್ಯ ವೃಂದೇತಯೋಸ್ಯಾಗ್ನಿಂಚ ನಿಯಾತ್ ತಂದಕ್ಷಿಣಾಭಿರ್ನರಾಧಯೇರಗ್ನಿಮೇವ ಸ್ಪೃಣೋತಿ.
प्रजापतिरग्निमचिन तत्त्वभिः संवत्सरम् वसन्ते दैवास्य पूर्वार्थमचिनुदग्रेष्मेण दक्षिणम् पक्षम् वर्षाभिः पुच्छकम् सर्वोत्तरम् पक्षकम् हेमन्तेन मध्यम् ब्रह्मणा वास्यपूर्वार्धमचिन नक्षत्रेण दक्षिणम् पक्षम् पशुभिः पुच्छम् विशोत्तरम् पक्षपाशया मध्यम् एवम् विद्वानग्निम् चिन तरुभिरेवैनम् चिनतेऽथो एतदेव सर्वन्तेन वग्निम् जिज्ञानवाच्यन्नकम् रोचदय्यम् वाव प्रथमाचिरोषधयो वनस्पतयः पुरेशमन्तरिक्षम् द्वितीयावयागम् त्रिपुरेशमसो तृतीया नक्षत्रादि पुरेशम् यज्ञश्च तृथे दक्षिणापुरेशम् यजमानः पञ्चमे प्रजापुरेशम् यत्र यज्ञम् दक्षिणामात्मानम् प्रजामन्तरियात्तस्मात् पञ्चचितेकश्चेतव्य एतदेव सर्वज्ञस्पृणोदयत्तिस्तश्चितयत्रवृद्ध्यग्रयद्वयद्विपादिजमानः प्रवृत्यत्यै पञ्चचितयो भवन्ति पाङ्गः पुरुष आत्मानमेव स्पृणोति पञ्चचितयो भवन्ति पञ्चभिः पुरुषैरभ्योहति संभव्यन्ते दशाक्षरो वै पुरुषो यावामेव पुरुषस्तज्ञस्पृणोत्यथो दशाक्षरा विराडन्नम् विराज्येवान्नाद्य प्रतिष्ठतिलम् वत्सरो वे षष्ठीचितयो भवन्ति षट्पुरेषाणि द्वादश सम्पद्यन्ते द्वादशमासाः संवत्सरः संवत्सर एव प्रतिष्ठति ोम्रलोहितः कर्कन्धुलोहितस्तेभ्राजापत्या बभ्रुरुणवभ्रुश्चुकमभ्रुश्चेरौद्राश्येतश्चेताक्षश्येतग्रेभस्ते विदधेवत्यास्तकृष्णावशावारण्यस्तिष्ठश्वेतावशा सौर्यो मेत्रापारकस्पत्या धूम्रलामास्तोपराः वृष्ट्यस्तिरस्तेन वृष्ट्यरोर्ध्ववृष्ट्यस्ते मारुताः फल्गोर्लोहितोर्नेव रक्षेताः सारस्वत्यपृषते स्थूलपृषते क्षुद्रपृषते तावैश्वदेव्यस्तिस्रश्यामावशाम्बौष्ण्यस्तिस्रोहिणेर्वशा मैत्रियैन्द्रावारहस्पत्या अरुणनामास्तोपराः श्रिबाहुरन्यदश्यतिबाहुः समन्तश्रिबाहुस्तैन्द्रवायवाश्चिरन्ध्रान्यदश्यतिरन्ध्रस्तमन्तश्रिरन्ध्रस्ते मे रावरुणाः शुद्धबालः सर्वशुद्धबालो मणिबालस्ताश्विना तिस्रश्युक्तावशावैश्वदेव्यस्तिस्रश्येने परमेक्षिले गोमापोष्णा श्यामललामास्तोपराः उन्नतरषभो वा मनस्तैन्द्रावरुणाश्रितिकवृच्छिदिभदत्तैन्द्रावार्यस्तत्याश्रितिपाच्छित्योष्ठश्चिदिभ्रस्तैन्द्रावेष्टवास्तिस्रश्चिद्ध्वावशावैश्वकर्मण्यस्तिस्त्रोधात्रे पृषोदरा ऐन्द्रापौष्णाश्चेतललामास्तोपराः कर्णास्त्रयोगावास्सौम्यास्त्रयश्विलिङ्गाग्रयजविष्ठायत्रयोणगुणास्तिस्रोलोहिणेस्त्रव्यस्तावसूनान्तिस्रोणादित्यौक्यस्ता रुद्रानागम् सोमेन्द्रावभृणलामास्तोपराः शृण्ठास्त्रयो वैष्णवा अधीरोधकर्णास्त्रयो विष्णवपुरक्रमाय सुदिनस्त्रयो विष्णवपुरगायाय पञ्चावेष्टिस्रादित्यानान्द्रवत्सास्तिस्राङ्गिरसामैन्द्रावैष्णवा गौरलामास्तोपराः इन्द्रायराज्ञेत्रयश्रीपृष्ठा इन्द्रायाधिराजायत्रयश्रीककुल इन्द्राय स्वराज्ञेत्रयश्रीफलस्तिस्रस्तुर्योक्यस्ताध्यानाः पष्ठोक्य विश्वेदान् देवानामाग्नेन्द्राकृष्णनामास्तोपराः अधिते त्रयो लोहितैता इन्द्राण्ये त्रयः कृष्णैता कुह्वैः त्रयोर्णैतास्तिस्रो धेनवो नाकाये त्रयो नड्वाहस्विनी बाल्यावैष्णवा लोहितललामास्तोपराः सौम्यास्त्रयः पिशङ्गाः सोमायराज्ञे त्रयः सारङ्गापाञ्जानभो रूपास्तिस्रो यामलुहा इन्द्राण्ये तिस्रो मेष्यादित्याद्या वा पृथिव्या मालङ्गाः सोपराः वारुणास्तरः कृष्णलला मा वरुणायराज्ञेतर्योहितलला मा वरुणाय दिशादधे त्रियोरुणलामाश्रिया वैश्वदेवास्तयः पृष्टयः सर्वदेवत्या ऐन्द्रासूराश्चेतलामास्तोपराः सोमायस्वराज्ञेनो वाहावहद्वाहाविन्द्राज्ञिभ्यामो ज्योताभ्यामुष्टाराविन्द्राज्ञिभ्याम् बलदाभ्यागुंसेनवाहावेद्वेधेनो भौमे दिग्भ्योमणवेद्वेधेनो भौमे वैराजे पुरुषे द्वेधेनो भौमे वायव आरोहणवाहावहद्बाहो वारुणे कृष्णे वश अराड्यौ दिव्यामुढभौ परिमरौ एकादश प्रातर्गव्याः पशवालभ्यन्ते शकलः कल्माडक्यकदेवर्विदेकयस्ते त्वाष्टा सौरेर्णव श्वेता वशानुबन्ध्या भवन्त्याग्नेयैराजाश्विनस्ते विशालयोपालभ्यन्ते विषङ्गास्त्रयो वासन्ताः सारङ्गास्त्रयोग्रयेष्वा पृषन्तस्त्रयो वार्षिका पृष्टयस्त्रयः शारदा पृष्टिसख्यास्त्रयो हैमन्तिका अवलिप्तास्त्रयः शैशिराः संवत्सरा यदिवक्षसः यो वा यथा देवतमग्निञ्चि रता देवताभ्यो वृष्टते पापीयान् भवति यो यथा देवतन्न देवताभ्यावृष्टदेवसीयान् भवत्याग्नेया गायत्र्या प्रथमाञ्चतिमभिवृषे दृष्टुभा द्वितीयान् जगत्या तृतीयामनष्टुभा चतुर्थे पङ्क्त्या पञ्चमे यथा देवतमेवाग्निञ्चि न तेन देवताभ्यावृष्टदेवसीयान् भवतीना एवालेता विभक्तिः पशुभगिना पशुभेनञ्चिनुतेजो वे प्रजापतये प्रतिप्रोच्याग्निञ्चिनो जनार्तिमार्च्छत्यश्वभिधस्तिष्ठेन कृष्णवुत्तरदश्वेतो दक्षिणस्तावालभ्येष्टका उपदध्यादेतद्वै प्रजापते रूपम् प्राजापत्योश्व साक्षादेव प्रजापतये प्रतिप्रोच्चाग्निञ्चिनो दिनार्तिमार्च्छत्ते तद्वा अह्नारूपं यच्छ्वेतोश्वो रात्रिये कृष्णयेतदह्नारूपं यदिष्टकारात्रिये पुरेशमिष्टकामुपधास्यं श्वेतमश्रमभिवृधे पुरेशमुपधास्यं कृष्णमहोरात्राभ्यामेवैनं चिनुते हिरण्यपात्रं मधो पूर्णं ददाति मधव्यो सानेति सौर्या चित्रमत्याभे क्षते चित्रमेव भवति मध्यं दिने श्रमवघ्रापयत्यसौ वादित्य इन्द्रजेष प्रजापति प्राजापत्यो स्वस्तमेव साक्षादृध्नोति त्वामग्ने वृषभञ्चेति दानं पुनर्यमानं जनयन्नुपागा अस्थोरिणागालिभवत्यानि सन्तु दिग्मेन ब्रह्मणा सगुंसिषाधि पशवो वारेते यदस्तकाश्चित्याञ्जत्यामृणभमुपदधानि मिथुनमेवा सर्गज्ञे करोति प्रजननाय तस्माद्यूथे योऽसरिणभः संवत्सरस्य प्रतिमायां द्वारा त्रिपासते प्रजागुं सुवीराणि विश्वमायव्यश्नवते प्राजापत्यामेतामुपदधातीयम् वा वैषयिकाष्टकाय देवैकाष्टकायामन्नम् क्रियते तदेवैकजावरुन्धयेता वै प्रजापते कामदुघात एव यजमानामुष्मिन् लोके बिन्दुहेयेन देवा ज्योतिषोद्वामुदायनयेनादित्यावसबोधेन रुद्राः येनाङ्गिरसोमभिमानमानतस्तेनैकयजमानस्वस्ति स्वर्गाय वा येन लोकागतीयते येन देवाज्योतिषोद्वा उदायन्नित्यक्षकम् समिन्धयिष्टकायैता उपधत्ते वानस्पत्या स्वरजस्य लोकस्य समष्टे शतायुधाय शरीर्याय शतोदयेऽभिमादिशाहे शतय्याणः शरतो अजेतानिन्द्रो मे शतति दुरितानि विश्वा ये चत्वारः पथयो देवयानान्तराद्या वा पृथिवी वियन्ते तेषायोज्ञानमजेति मा वहा तस्मै नो देवाः परिधत्ते ह सर्वे
देष्मा हेमन्तपुतनोपतन्तः शरद्वर्षास्तु पितन्नास्तु तेषामृतो नागम् सजधारदानान्निपादने राभये स्याम इदुवत्सराय परिवत्सराय संवत्सराय कृणुतामृजम् नमः तेषाम् मयगम् सुमतो यज्ञानाञ्चोगजेता अहदा स्याम भद्रान्नश्रेयः समनेष्टते भास्तु यो वसेन समशीमहित्वा सदोमयो भोः पितोमिषस्वसन्तोकायतनुवे स्यो नः अज्ञानीरेता उपदधा पेता वै देवता अपराजितास्तादेव प्रविशति नैव जीयते ब्रह्मवादिना वदन्ते दग्धमासा मासार्दवः संवत्सरमोढधे पचन्ते जगस्मादन्याभ्यो देवताभ्याण निरूप्येता हि तद्देवता उदयनयदभ्यो निर्वपे देवताभ्य समदन्दध्यादाग्रेण निरूपेता र्जुहार्यर्धमासादेव मासादतो संवत्सरम् प्रेणादिन देवताभ्यः समदम् दधाति भद्रान्नश्रेयः समनेष्टते भा इत्याह हुताद्याघयजमानस्यापराभावाय इन्द्रस्य वज्रोऽधिवार्थग्नस्तनोपानः प्रतिस्पशः यो नः पुरस्ताद्दक्षिणतः पश्चादुत्तरतो भागदभिदा सत्तेतकम् सोऽस्मानमृच्छतो देवासुराः संयत्तासन्ते सुराधिभ्य आबाधन्ततान् देवाविश्वाजवज्रेण चापानुदन्तयद्वज्रीरुपदधारेष्वा चैव तद्वज्रेण गजमानो भ्रातृव्यानपनुदते दिक्षोपदधारि देव पुरा एवैतास्तनोपाणे पर्योहतेऽग्ना विष्णोरजोषसेवावद्धन्तु वाङ्गिरः जुम्नेर्वाजेऽभिरागतम् ब्रह्मवादिना वदन्ति यन्न देवता हेजुःपत्यथकिम् देवत्यावसोऽर्धारे त्यज्ञर्वस्तस्यैकाधारावैष्णव्यत्यावसोऽर्धारे नैवैनो समर्थयत्यथो एतामेवाहुतिमायत्कामयेनाञ्जोदेवावृन्धे रुद्रो वायेदयनग्न्यस्तस्यैकेतनवो घोराण्या शिवान्यायच्छत रुद्रीयञ्जुहोदेवास्य घोरापनोस्तान्तेन शमयति यद्वसोऽर्धाराञ्जुहोदेवास्य शिवातनोस्तान्तेन प्रेणादियो देव सोऽर्धाराये प्रतिष्ठाम् वेद प्रत्ययपतिष्ठति यदाज्यमुच्छिष्ट यस्मिन् ब्रह्मवदनम् पदे ब्राह्मणाश्चत्वारः प्राश्चेयदेशवाग्निरुपयेष्वा खलु वाग्ने प्रियाद्वयेष्वानप्रियायामेवैनाम् तनुवाम् प्रतिष्ठादयश्रोतेनोद्याप्ताभिरेव यजमानामुष्मल्लोके बिन्दुहे कीर्तिञ्जहो विमनसा हृदेनेत्याहारायैनामेतावैश्वकर्मणिरैनञ्जित्यानम् भ्रातृव्यानभ्राच्यसो देवता एवावरुन्धे ज्ञेतपद्येति पञ्चाजहोति पञ्चाहुत्या यज्ञमुखमारभते सप्तदे अग्नेतविधः सप्त जित्वा इत्याहोत्रा एवावरुन्धे भागधेयमिच्छमानस्तन्वादेभागधेयम् प्रायच्छन्नेतद्वा अग्नेरग्निहोत्रमेतरे खलु वा एकजातो यदि सर्वश्चितो जाता जैवा स्वान्नमपि तथायनम् वेदः प्रेणातिपदीयान् भवति ब्रह्मवादिना वदन्ति यदेशकार्घवत्यश्चीयते चक्वाणीयदित्यैति ब्रूयादेतस्मिन्निखिसर्वाभ्यो देवता एवम् विद्वानग्निम् च नृते साक्षादेव देवतायशस्विनिशसेमपयेन्द्रावतीमवजिदेविहावः अयम् मोऽध्वापरमेष्ठे समर्थास्तमानामुत्तमश्लोको अस्तु भरताम् पश्यन्त उपते दुरग्रेतपो दीक्षामृजगस्तु वर्मिदः तदः क्षत्रम् वनमोजश्च दातन्तरस्मै देवा अभिसन्नमन्तो धातापि धाता परमोद संरक्षामः परमेष्ठे विराजा
त्वमाच्छन्दागुंसि निमितो माहुयेतस्मै राष्ट्रमभिजन्नमाम अभ्यावर्तद्धमुपमेतदागमयगुंसास्ताधिपचर्वो अस्तु अस्य लव्यानमनसगौणभद्रमिमम् पश्चादृजीवान् सर्वे राष्ट्रभृतयेता उपदधात्येता वा अग्ने स्थितिराष्ट्रभृत्त एवास्मिन् राष्ट्रम् दधाति राष्ट्रमेव भवति नास्माद्राष्ट्रम् भृगंशते यथा मे पुत्रो जातम् मृगत एवम् वारेणम् म्रियते यस्याग्निरुक्षवृद्वाय त्रियन्दम् मन्थ्यम् कुर्याद्भ्यादर्यमस्मे जनये स एव पुनः परेध्यस्मादेवेन योनेऽद्यनयति नास्मै भ्रातृव्यञ्जनयति नमो वारेण गृह्णार्यस्याग्निरुक्षवृद्वायति मृत्युस्तमः कृष्णम् वाच कृष्णाधेनदक्षिणातमसैव तमो मृत्यवमहते हिरण्यम् ददादिज्यो धनुवे हिरण्यम् ज्योतिषैव तमोपहते थोते जो वै हिरण्यम् तेजदेवात्मम् धत्ते सुवर्णघर्म स्वाहा सुवर्णार्कस्वाहा सुवर्णशुक्रस्वाहा सुवर्णज्योतिस्वाहा सुवर्णशौर्यस्वाहात्मो वा रेटयदग्निरसा वादित्योऽश्वमेधो यदेता आहुयेर्जुहोत्यर्काश्वमेधयो रेव ज्योतेकम् विगम् तथाप्येन हत्वा अर्काश्वमेधीयस्तेतदग्नोदापो वा इदमग्नेधरिलमाजे स एताम् प्रजापतिः प्रथमाञ्चिरिमपश्चत्तामुपाधत्ततियमभवत्तम् विश्वकर्मा प्रवेदुमत्वा यानेति नेहलोकोऽस्तीत्यब्रवेत् स एताम् द्वितीयाञ्चिरिमपश्चत्तामुपाधत्ततदन्तरिक्षमभवत् सज्ञः प्रजापतिमप्रवेदुमत्वा यानेति नेहलोकोऽस्तीत्यब्रवे स विश्वकर्माणमब्रभेदुमत्वा जानीति केन मोपैष्यसि दिश्याभिरित्यब्रभेत्तम् दिश्याभिरुपये तावुपाधत्तता दिशो भवान् स परमेष्ठे प्रजापतिमब्रभेदुमत्वा जानीति नेह लोकोऽस्तीत्यब्रभेत् स विश्वकर्माणम् च यज्ञम् चाब्रभेदुपभावा जानीति नेह लोकोऽस्तीत्यब्रूतागुंसेतान् तृतीयाञ्चितिमपश्यत्तामुपाधत्ततदसा भवत्सहादित्यः प्रजापतिमब्रभेदुभत्ता यानेति नेह लोकोऽस्तीत्यब्रभेत् स विश्वकर्माणञ्च यज्ञम् चाब्रभेदुपभावा यानेति नेह लोकोऽस्तीत्यब्रूतागुंस परमेष्ठिनमब्रभेदुभत्वा यानेति केन मोपयिष्यसीति लोकम् प्रणयेत्यब्रभेत्तम् लोकम् प्रणयोपयेत्तस्मादयादाम्नि लोकम् प्रणाजातया भाष्यसा वादित्यस्तानो ब्रुवन्नुपभागामेति केन न उपेष्यथेति भोम्नेत्यब्रुवन्तान् द्वाभ्याम् चिदेभ्यामुपायान् स पञ्चजिते कस्तमपद्यतेवम् विद्वानग्निम् च नुते भूयानेव भवत्यभीमान् लोकाञ्जेति विदुरेणम् देवा अथो एतासामेव देवतानागुंसायुज्यम् गच्छति ग्निदग्निचित्पक्षिणोस्त्रीयाप्तमेवाग्निमद्यादाद्यवार्चे संवत्सरम् व्रतम् च संवत्सरगम् हि व्रतम् नाति पशुर्वा एदयदग्निर्हिनस्ति खलु वैतम् पशुर्ययेहम् पुरस्तात्पर्यञ्जनुपचरितस्मात् पश्चात् प्रागुपचर्य आत्मनोहिकम् जाये तेजो जितेजो मे यच्छ पृथिवीयच्छ पृथिवीमापाहिज्यो ज्योतिर्मे यच्छान्तरिक्षम् यच्छान्तरिक्षान्मापाहिवरदिवर्मे यच्छति वयम् यच्छति वो मा बाहेत्याहेताभिर्वायिमे लोकाभिधृताय देता उपदधाम् लोकानामिधृत्यये स्वयमादर्णा उपधाय हिरण्ये टका उपदधा इमे वे लोका स्वयमादर्णा ज्योतिर्हिरण्य स्वयमादर्णा उपधाय हिरण्ये टका उपद ीमानेवेताभिर्लोकान् ज्योतिष्पदः कुरुते छोयेताभिरेवास्माहिमे लोकाः प्रभान्ति यास्ते अग्नेजो जिवमातन्मन्दिरस्मिभिः ताभिः सर्वाभिर्जे जनायनस्कृति यावो देवाः सूर्येरुचो गोष्वश्वेरुयारुतः इन्द्राग्नेताभिस्सर्वाभिरुचन्नो धत्त बृहस्पते ऋतर्नो देहि ब्राह्मणेषु चकुम्भाजसुनस्कृति ऋतम् विश्वेषु शूद्रेषु मयिधेरुचारुचम् देधा वा अग्निम् चेत्यानस्य यथेन्द्रियम् गच्छत्यग्निम् वा चतुर्वीजानम् वा यदेताहुतेर्जुहोत्यात्मन्नेव यशेन्द्रियम् धत्तयेश्वरो वा येदात्यमात्मार्यञ्जन्मन्नभिक्रामजगत्वाजाभिब्रह्मणामन्तवानिजिवारुण्यर्चाजुहुयाक्षान्तिरेवैराग्नेर्गुप्तिरात्मना हविष्कृतो वा स्कन्दत्वेवम् वा एकस्कन्दयोग्निञ्जित्वा स्थिरमुपैति मयेत्रावरुण्यामिक्षयायजेद मयेत्रावरुणतामेवोपयेत्मनास्कन्दाहियो वा अग्निमतस्था वेदत्वरुतरस्मे कल्पमानयेति प्रत्येवतिक्षयितम् वत्सर्वाग्निरुतस्थास्त्रस्य वसन्तशिरोग्रेष्व दक्षिणपक्ष वर्षापुच्छकम् शरदुत्तरपक्ष मध्यम् पूर्णपक्षाश्चितयो परपक्षाः पुरेणमहोरात्राणेष्टकायेतवाग्निरुतस्थायम् वेदत्वरुतरस्मै कल्पमानवेदे प्रत्येव तिष्ठति प्रजापसर्वायेदम् ज्येष्ठकामानेष्ठ्यमगच्छद्येवम् विद्वानग्निम् चिनुते ज्येष्ठमेव गच्छति यदा कूतात् समधस्ताद्धृतो वा मनसो वा सम्भृतम् चक्षुषो वा तमनप्रेहसुखस्य लोकयद्वर्षे प्रथमजाये पुराणाः एतकम् तदस्थफलिते ददा विजभावः क्षेमधिञ्जातवेदाः अन्वागन्ता यज्ञपदर्भो अन्तरग्निस्पजानेदपरमेव्योमन् ेतादेनम् परमेव्योमम् देवाः स्वस्थाविदरूपमस्य यदागच्छाद्देवयाने हृष्टा भूत्ते कृणुतादाविरस्मै संरक्षवध्वमनुसंप्रजाताग्ने पथो देवयानाहम् कृणध्वम् अस्मिन् सशस्ते अभ्युत्तरस्मिन् विश्वे देवा विद्यमानश्च सीदत प्रस्करेण परिधिनाः सुनावेद्याजपरिहिषाः ऋतेमै यज्ञन्नोपहसुवर्देवेषु गन्तवे यदृष्टै यत्परादानै यद्दत्तै याच दक्षिणा तदग्निर्वयेश्वकर्मणः सुवर्देवेषु नो दधते येना सहस्रम् वहसि येनाग्ने सर्ववेदसम् तेनैमै यज्ञन्नोपहसुवर्देवेषु गन्तवे येनाग्ने दक्षिणा युक्ता यज्ञम् वहन्ति त्विदः तेनैवै यज्ञम् न बहसुभर्देवेषु गन्तवे येनाग्ने सुगुणः पथामधोर्भाराव्यानुषु तेनैवै यज्ञम् न बहसुभर्देवेषु गन्तवे यत्र धारा अनपेतामधोर्घृतश्च जयाः तदग्निर्वैश्वकर्मणः सुमद्देवेषु नो दधते यास्ते अग्ने समिधो या निधामया जिह्वाजातवेदो यो अर्चिः एते अग्ने मेण योजयन्तवस्तेभिरात्मानम् जनिः प्रजानन् उत्सरन्नयज्ञो वा एतैरग्निः किम् वा हैरस्य क्रियते किम् बालेद्वा अध्वर्युरग्नेश्चिन्वन्नन्तरेत्यात्मनो वै तदन्तरे यास्ते अग्ने समिधो या निधामेत्या हैषा वा अग्ने स्वयम् चितिरग्निरेव तदग्निम् च नो दिनाध्वर्युरात्मनोऽन्तरे जलस्राधा प्रचलन्वग्ने इमन्नो यज्ञम् न यद प्रजानन् घृतम् पिन्वन्न जनकम् सुमेहम् ब्रह्म समिद्भवत्याहुदीनाम् सुवर्गाय वा एष लोकायोपधीयते यत्कोर्मश्च तस्राजा प्रचलन् भग्ने इत्याहधिषेवेदेन प्रजाना जीवन्ना यज्ञम् न यत् प्रजानन्नित्याहसुवर्गस्य लोकस्याभिरेत्ये ब्रह्मसमिद्भवत्याहुदीनामित्याह ब्रह्मणा वे देवा सुवर्गम् लोकमायुजय ब्रह्मण्वत्यापदधादि ब्रह्मणैव तद्यजमानः सुवर्गम् लोकमेदि प्रजापद
सर्वाणेनग्निस्तस्य प्रजाः पदवच्छन्दागम् तिरूपकम् सर्वाणमन्नादित्यकाणाञ्जोयाद्योगेणैव प्रजाम् पशोच्छन्दागस्य वरुन्धेथो प्रजाभ्य देवेणम् पशुभ्यश्छन्दाभ्यावरुभ्यजनते मयिगृह्णाम्यग्रे अग्निगम् रायस्पोषायुः प्रजास्त्वायुधवीर्याय मयि प्रजाम् मयिवर्तो दधाम् मेष्टास्याम तनुवा सुवीराः यो नो अग्निः पितरो हृत्स्वन्तरमत्यो मत्यागम् आविवेश तमात्मन् परिगृह्णेमहे मयम् वासो अस्माकम् अवहाय परागाद यदद्धर्युरात्मन्नग्निमगृहेत्वाग्निजाद्योऽस्यस्वाग्निस्तमभेदमानागजलयाग्निङ्कलुवैपदवो नोपतिष्ठन्ते वक्त्रामुकास्मात्पदवस्यर्मय गृह्णाम्यग्ने अग्निविद्याहात्मन्नेव स्वभग्निन्दाधारणास्मापदवोपक्रामङ्गब्रह्मवादिना वदन्ति यन्मृच्चापश्चाग्नेरहात्यवसगस्मामृदा ्यते हिरण्येष्टका उपदधारिज्योतिर्वैरण्यम् ज्योतिरेवास्मिन् हिरण्यम् देवात्मन् धत्ते यो वा अग्निकम् सर्वतो मुखञ्जिते सर्वासु प्रजा स्वन्नमत्य सर्वादिशोभिजयति गायत्रे पुरश्चादुपदधारित्रष्टुभम् दक्षिणतो जगते पश्चात् नष्टुभमुत्तरतः पङ्क्तिम् ज्ञः सर्वतो मुखस्तय एवम् विद्वागस्तु नृते सर्वासु प्रजा स्वर्णमत्य सर्वादिशोभिजयत्यथो विश्वेव सम्प्रवयतिस्माक्रोता प्रजापतिरग्निमसृजतसोऽस्मात् सृष्टः प्राम् प्राद्रभक्तस्मा अश्वम् वृत्त्या स्यत्स दक्षिणावत्यरतस्मै वृष्टिम् वृत्त्या स्यत्स प्रत्यङ्गावत्यरतस्मारिषभम् वृत्त्या स्यत्स उदङ्गावत्यरतस्मै भक्तम् वृत्त्या स्यत्स ऊर्ध्वोद्रभक्तस्मै पुरुषम् वृत्त्या स्यद्यपदधानि सर्वदयेवै नव मरुभ्यजनदये प्राणभृतश्चक्षुषेरिष्टगायत्पशुशेरिषाण्यपशुशेरिषाण्यभिरेवमानामुष्मल्लोकेष्वाजिमे लोकाः प्रभान्यभृताभिलिप्योपदधाजिमे यद्वायुवसुर्वायदयदग्निरन्नम् पशवनेन खलु वा अग्निर्यत्पशुशेरिषाणि कामगेत कनीयोऽस्यान्नग्निस्यादिति सन्तरान्तस्य पशुशेरिषाणि ्यपदध्यात्कनीयदेवास्यान्नम् भवदियम् कामयेत समावधस्यान्नग्निस्यादिति मध्यस्तस्योपदध्यात् समावदेवास्यान्नम् भवदियम् कामयेत भोजोऽस्यान्नग्निस्यादित्यन्ते ऋतस्य व्यतोष्ट्योपदध्यादन्तदेवास्मान्नमवन्धे भोजोऽस्यान्नम् भवति एकान्तग्रष्टाभ्याम् मण्डोकान्त्यम्भ्यभिरातकान् खादेनोर्जगम् जगम् सूदेनारण्यञ्जाम्बीलेन मृदम् वस्त्रेभिश्शर्कराभिरवकामवकाभिः शर्करामुत्सादेन जग्वामवक्रन्देन तानुपुंसरस्पतीम् जग्वाग्रेण बालगुम्हणोऽभ्यामवास्येनादित्यान् श्वश्रुभिर्वयामधरेणोष्ठेन सदुत्तरेणान्तरेणानोकाशम् प्रकाशेन वाक्यज्ञस्तनयत्रुर्निर्बाधेन दोर्याग्नेयत्रभ्याम् विद्यतोकनानकाभ्यामसनिम् मस्तिष्केन बलम् मज्ञभिः कोर्वाञ्छभैरक्षलाभिः कविञ्जलान् सामकुष्ठिराभिर्जवन्यङ्गाभिरगृञ्जानुभ्याम् वेर्यम् गुहाभ्याम् भयम् प्रजालाभ्याम् गुहोपभक्षाभ्यामश्विनावगुंसाभ्यामदरे ఏకం శేష్ణా నిర్జాల్మకేన శేష్ణా సోక్తం గృద్ధాభిర్యుగమానదేన చిత్తం మన్యాభిః సంక్రోధాన్ ప్రాణే ప్రకాశేన పదం పరాకాశేనాంతరాం వశకాంతే తైరింద్రజ్ఞస్వపసామహేన బృహస్పతికం శకుని సాతేన రథముష్టిహాభిః మిత్రవరుణో శ్రోణేభ్యామింద్రాగ్నిఖండాభ్యామింద్రా బృహస్పతి ఓరుభ్యామింద్రా విష్ణు అష్టేవద్భ్యాగం సవితారం పుచ్చేన గంధర్వాంక్షేపేనాప్సరసో ముష్కాభ్యాం పవనాం వాయునా పవిత్రం పాత్రాభ్యామాక్రమణగ్నిస్థూలాభ్యాం ప్రతిక్రమణం కుష్టాభ్యాం ఇంద్రస్య క్రోడో నిత్యే పాయస్యం దిశాన్ జత్రవో జీవోతాన్ హృదయోపశాభ్యామంతరిక్షం పురిగతాన్ భవతర్యేణేంద్రాణీం ప్లేన్నావన్మేకాన్ క్రోమ్నా గిరేం రాశుభిః సముద్రముదరేణ వైశ్వానరం భస్మనా ఓష్ణావరిష్ఠురంధాహే స్థూరగుణాదత్వాన్ గుణాభిరథోన్ పృష్ఠే సత్యమం పృష్ఠేన వసూనాం ప్రథమాకేకసా రుద్రాణాం ద్వితీయాదిత్యానాం తృతీయాంగిరసాం చతుర్థీరాధ్యానాం పంచమే విశ్వేనాం దేవానాగం షష్ఠీ ేవాభిర్నిర్యమస్తభిరింద్రగ్రస్వసామహేన రుద్రస్య విజనస్కంధోహోరాత్రయోర్ధమాసానాం చతుర్థరుతూనాం పంచమః సంవత్సరస్య షష్ఠః ఆనందం నందసునాకామం ప్రత్యాసాభ్యాం భయగంశదేవభ్యాం ప్రసిదం ప్రసాదాభ్యాగం సౌర్యాచంద్రమసామృత్యాభ్యాగశ్యామదమనోదశాభ్యాం దృష్టిగౌరూపేణం రక్తిమరూపేణ ఆత్మాగుంసేనరాత్రిం పీపసాపయోషేణ ఘతగౌరదేణ శ్యాం వదగాదోషేకాభిక్రాతునిమస్సుభిక్రష్వాగం రూపేణ నక్షత్రాణి ప్రజలోపేణ ప్రజలేర్మనా చమేక్షభ్యోపాకృతాయ స్వాహా లబ్ధాయ స్వాహా హుతాయ స్వాహా అగ్నేపక్షరి సరస్పత్యై నిపక్షరి స్తోమస్తృతీయాపాయోషీనా పంచమేదం వత్సరస్యే మరుదాగం సప్తమే బృహస్పతే అష్టమే మిత్రస్య నవమే వరుణస్తమేంద్రస్యైకాదశే విశ్వేదాం దేవానాం ద్వాదశే ద్యావాదుర్గా పార్శ్వయమస్య పాండూరః ఆయోపక్షది సరస్వతో నిపక్షదిశ్చంద్రమతృతీయా నక్షత్రాణాం చతుర్థేదమిదః పంచమే రుద్రస్య షష్ఠే సర్పాణాగం సప్తమ్యర్యం నోష్టమే త్వష్టన్నవమే ధాతుర్దశమేంద్రాణ్యాదేకాదశ్రీత్యే ద్వాదశే ద్యావాపృథివ్యాః పార్శ్వయ్యమ్యే పాదూరః పంథావనవృద్ధ్యాగం సంతరిగ్గస్నావన్యాభ్యాగం శుకాన్ పిత్తేన హరిమాణై యజ్ఞాహలేక్షణాన్ పాపమాదేన కోష్మాంఛకభిః సమర్తాలోబద్ధేన శునోభిషసనేన సర్పాన్ లోహిత గంధేన వయాగం జివక్వగంధేన విపేలికా ప్రసాదేన క్రమేణ్యక్రమే ద్వాదే విశ్వే దేవైర్యజ్ఞే సంవిధానః సనోనయసుకృతస్య లోకం దస్య దేవయజ్ఞస్పథయామదేవ యోస్తే పృష్టం పృథివీ రథస్థమాత్మాంతరిక్షం సముద్రో యో నిస్తోర్యస్తే చక్షుర్వాదః ప్రాణశ్చంద్రమా శ్రోత్రం మాసాశ్చార్ధమాసాశ్చ పర్వాంగాని సంవత్సరో మహిమా అగ్ని పశురాజేత్తేనాయజంతసేతం లోకమజయ్యస్మిన్నగ్నిస్వతే లోకస్తంజేషాపజిఘ్రవాయ పశురాజేత్తేనాయజంతసేతం లోకమజయ్యస్మిన్ వాయస్వతే లోకస్తస్మాత్వాంతరేష్యాభిజినాపజిఘ్రస్యాదిత్య పశురాజేత్తేనాయజంతసేతం లోకమజయ్యస్మిన్నాదిత్యస్వతే లోకస్తంజే
పంచమకాండ సమాప్తః షష్ఠకాండ ప్రారంభః.
ప్రాచీనవంశం కరోతి దేవమనుష్యాదిశోభ్యభజంత ప్రాచీన్ దేవాదక్షిణాపితర ప్రతీకే మనుష్యాపదేకం వృద్ధాయ ప్రాచీనవంశం కరోతి దేవలోకమేవ దద్యజమాన ఉపావర్తతే పరిశ్రయత్యంతరితో హి దేవలోకో మనుష్యలోకాన్నాస్మాన్ లోకాత్ స్వేదవ్యమివేత్యాహ కో హి తద్వేదయజ్ఞముష్మిన్ లోకేస్తి వానవేది విశ్వదే కాశాం కరోత్యుభయోర్లోకయోరభిజిత్యేకేశస్పశ్రువపదే నఖాని నికృందతే మృతావారేణాత్మకమేధ్యాయత్యేకస్పశ్రుమృతామేవ త్వదమేధ్యామపహత్తయజ్ఞో భూత్వా మేధముపేతంగిరసుమర్గం లోకయ్యంతోప్సుదేక్షాతపసి ప్రావేశరన్నప్సుస్నాదిసాక్షాదేవదే తపసి అవరుంధే తీర్థే స్నాది తీర్థేతాన్ ప్రావేశం తీర్థే స్నాది తీర్థమేవ సమానాభవత్యపోత్యంతరత ఏమేభ్యోభవతి వాసదాదేక్షైరి సౌమ్యం వే క్షోమం దేవతయా సోమమేత దేవతముపైతి జ్యోతిక్షతే సోమస్య తనోరీమం మే బాహేత్యాహ స్వామేవ దేవత ేతామాషాస్తేష్టాధానం పాదపానం పితృణాన్ నేవిరోధీనా ప్రఘాతాదిత్యానాం ప్రాచీనతానో విశ్వేదాయం దేవానామోదం నక్షత్రానామచేకాశాస్తద్వా ఏతత్సర్వదేవత్యయ్యన్వా సోయద్వాసదాదేక్షయతి సర్వాభిదేవేనం దేవతాభిర్దేక్షయతి బహిః ప్రాణమే మనుష్యస్తస్యాశనం ప్రాణాశ్రాది ప్రాణయేవేక్షదాశిలోభవ్యావానేవాస్య ప్రాణస్తేన సహ మే సముపేతి ఘతం దేవానాం నిష్పక్వం మనుష్యాణాం తద్వా ఏతత్సర్వదేవత్యయ్యన్నవనీతయ్యన్నవనీతేనాభ్యంతే సర్వా ఏవ దేవతా ప్రేణాది ప్రచ్యుతో వా ఏషోస్మాల్లోకాదగతో దేవలోకయోదీక్షితోందవనీతం తస్మాం నవనీతేనాభ్యంతేన లోమయ్యజుషావ్యావృత్యా ఇంద్రో వృత్రమహంతస్య కనేలికా పరాపదత్తదాంజనం భవద్యథాం చక్షుదేవ భ్రాతృవ్యస్తవంతే దక్షిణం పూర్వమాంతే సవ్యగం హి పూర్వం మనుష్యా ఆంజతే నిధావతే నేవహి మనుష్యా ధావంతే పంచకృత్వాంతే పంచాక్షరావంతి పాంతో యజ్ఞో యజ్ఞమేవరుంధే పరిమితమాంతే పరిమితకం హి మనుష్యా ఆంజతే సదోదయాంతే పదోదయా హి మనుష్యా ఆంజతే వ్యావృత్తే ేదవద్రైవ్యాత్సూలయాంతే మిత్రేంద్రవృత్రమహన్ సదేవమాసేత్తరబోధక్రామత్తే దర్భా అభవనయద్దర్భముంజేరే పవయజియాయమేధ్యాయజ్ఞయా సదేవాపస్తాభిరేవైనం పవయది ద్వాభ్యాహోరాత్రాభ్యామేవైనం పవయది త్రయః పవయది త్రయమే లోకాయభిరేవైనం లోకేః పవయది పంచభిః పవయది పంచాక్షరామంతి పాంతో యజ్ఞో యజ్ఞా దైవేనం పవయతి షడ్భిః పవయతి షడ్వారతవరతుభిరేవేనం పవయతి సప్తభిః పవయతి సప్తఛందాగం శ్రీఛందాభిరేవేనం పవయతి నవభిః పవయతి నవమే పురుష ప్రాణాః సప్రాణమేవేనం పవయత్యేకవిభూషత్యా పవయతి సహస్యా అంకురయోగశపద్యా ఆత్మైకవిభూషో యావానేవ పురుషస్తమపరివర్గం పవయతి పరిస్తాపునాత్మనోవే చిత్పచర్మనసేవేనం పవయతి వాక్పతిస్తాపునాత్మిత్యాహ వాచైవేనం పవయతి దేవస్తాసుమితా పునాత్మిత్యాహ సుమితప్రసూతయేవేనం పవయతి తస్య దేవమిత్రమదే పవిత్రేణ యస్మైకం పునేతచ్చయేన నిమిత్యాహాసిసమే